एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा नेकपा एमाले संसदीय दलस्य ह्यस्तनोपवेशे सर्वकारस्य नीति कार्यक्रमान् विमृश्य पक्षे स्थित्वा कार्यं विधातुं निर्णीतं वर्तते। बालुवाचारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे उपवेशे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली संसदि प्रस्तुतः सर्वकारस्य नीति कार्यक्रमः देशे राजनैतिक स्थायित्वस्य विकासस्य सुशासनस्य कृते समीचीनतया आनीतः सन्तीति उदैरयत्। प्रधानमन्त्री ओली नीति कार्यक्रमः उचितरूपेण आनीतः सन्तीत्यतः निर्भयेन दृढतापूर्वकं समर्थनं प्रदातुं सांसदान् अनुरुद्धवान्। प्रधानमन्त्री ओली नीति कार्यक्रमः समीचीनः सन्तोऽपि विपक्षिभिः सदैव विरोधो विधीयते इत्यतः तदुपेक्ष्य प्रस्तुतानां नीति कार्यक्रमाणां क्रियान्वयनाय सांसदैः प्रभावपूर्णा भूमिका निर्वोढव्या इति प्रावोचत्। नेपाली कांग्रेस दलेन सर्वकारेण आनीतानां नीति कार्यक्रमाणां रचनात्मकतया समीचीनैः परामर्शैस्सह समर्थनं कर्तुं निर्णीतमस्ति। नेपाली कांग्रेस संसदीय दलस्य ह्यस्तनोपवेशेन संघीय संसदि प्रस्तुतानां नीति कार्यक्रमाणां क्रियान्वयनाय तदनुसारेणैव आगामिनः आर्थिक वर्षस्य आयव्ययकं प्रस्तोतव्यमिति उपवेशस्य निष्कर्षोऽस्तीति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो श्याम घिमिरे असूचयत्। संसदि विधेयकानां निर्माणकार्यं गतिशीलं नास्ति इत्यतः आगामिषु दिनेषु एतस्मै कार्याय तीव्रतां प्रदातुं दलेन कार्यं करणीयं परिणाममुखतया एतदर्थं भूमिका च निर्वोढव्या इति निष्कर्षः उपवेशेन प्रकाशितोऽस्तीति प्रमुख सचेतक पदीयः घिमिरे अज्ञापयत्। एवमेव उपवेशेन शिक्षक महासंघेन सह सम्भूतायाः सहमतेः अनुसारेण आषाढमासस्य पञ्चदश दिवसं यावत् अनुकूलतया विधेयकं पारितीकर्तुं सांसदैः प्रतिबद्धैर्भाव्यम् एतदनुसारेणैव च भूमिका अपि निर्वोढव्या इत्यत्र च बलं दत्तमस्तीति प्रमुख सचेतक पदीयः घिमिरे असूचयत्। राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्षः तपबहादुर मगर संचार स्वतन्त्रता मानवाधिकाराणां रक्षिकास्तीति अभिव्यनक्ति। नेपाल पत्रकार महासंघेन विश्व संचार स्वतन्त्रता दिवसस्य अवसरे पूर्वेद्युः काष्ठमण्डपे आयोजिते कार्यक्रमे आयोगस्य अध्यक्षः मगर पत्रकाराणां नीतिगतायै वृत्तिगतायै च सुरक्षायै सर्वैः ध्यानं प्रदातव्यम् इत्यत्र बलं दत्तवान्। कार्यक्रमे नेपाल पत्रकार महासंघस्य अध्यक्षः निर्मला शर्मा महासंघस्य पूर्वाध्यक्ष हरिहर विरही च विचारं व्यक्तवन्तौ। कार्यक्रमे पश्चात्तन वर्षे संचार स्वतन्त्रता सम्बद्धा त्रिसप्ततिः घटनाः घटिताः सन्तीति विज्ञापितमासीत्। महासंघस्य अनुसारेण पश्चात्तन वर्षे पत्रकारद्वयस्य हत्या विहितास्ति। सर्वकारस्य विभिन्नः याचनः उपस्थाप्य आन्दोलनरतैः चिकित्सकैस्सह सहमति धृता अस्ति। स्वास्थ्य जनसंख्या मन्त्रिणः नेपाल चिकित्सक संघस्य आवासीय चिकित्सकानां च मध्ये विभिन्नेषु विषयेषु सहमति धृता अस्ति। सहमतिरनुसारेण चिकित्सा शिक्षा आयोगस्य षोडशोपवेशस्य क्रियान्वयनं विधातुं नैज सार्वजनिक चिकित्सा संस्थासु युगपत् प्रवेशाभियानं चालयितुं च निर्णीतम् वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति नेपालः प्राच्यज्ञानस्य परम्परायाश्च स्रोतो वर्तते यत्र अनेकासां संस्कृतीनां सभ्यतानां च एकता द्रष्टुं शक्यते। काष्ठमण्डपस्य नागार्जुननगरपालिकायाः सप्तमवडाक्षेत्रवर्तिनि रामकोटस्थाने बद्रीनारायणधाम्नः पूर्वेद्युः उद्घाटनं विदधानः राष्ट्रपति पौडेलः विश्वेस्मिन् विश्वे शान्तेः सहिष्णुतायाः बन्धुत्वस्य च जागरणं विधातव्यमित्यत्र बलं प्रादात्। तदवसरे राष्ट्रपतिः पौडेलः मनुष्यः भौतिकविकासे सुखं शान्तिं च अधिगन्तुं शक्येते इत्यत्र भ्रान्तोऽस्तीति विचारम् व्यक्तवान्। नेपालस्य पश्चिम भूभागात जलवर्षक मेघस्य विकासानन्तरं क्रमशः पूर्वदिशि शरणात् देशस्य कतिपय स्थानेषु वर्षाः जायमानाः सन्ति इति जलवायु विज्ञान विभागेन ज्ञापितं वर्तते। विभागस्य वातावरण पूर्वानुमान महाशाखायाः जलवायुविद संजीव अधिकारी आगामिषु कतिपय दिनेषु अपि जलवायु वातावरणे परिवर्तनं सम्भवतीत्यतः सावधानताम् अवलम्बितुं सर्वान् अनुरुद्धवान् वर्तते। सम्प्रति नेपाले स्थानीय वायु पश्चिम दिशः वायोश्च विकासो वर्तते। अधुना लुम्बिनी गण्डकी बागमती प्रदेशानां कतिपय भूभागेषु वृष्टिः जायमाना अस्ति इति जलवायुविद अधिकारी असूचयत्। त्रिभुवन राजपथस्य नागढुंगा पिपला मोड मार्गः निर्मातव्यः वर्तते इत्यतः नागढुंगा नौविसे मार्गखण्ड अस्यैव वैशाख मासस्य द्वाविंशात् दिवसात् रात्रौ पिधापयिष्यते इति ज्ञापितमस्ति। नागढुंगा मुगलिन मार्गायोजनायाः पूर्वखण्डस्य अनुसारेण एतदवधौ मार्ग सम्भाराय पिधातुं पूर्वकार्यं विहितमस्ति इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रवक्ता प्रहरी उपरीक्षकस्य अपिलराज बोहरा अज्ञापयत्। मार्गखण्डोऽसौ वैशाखस्य द्वाविंशात् दिवसात् एकत्रिंशं दिवसं यावत् रात्रौ एकादशवादनात् प्रातः त्रिवादनं यावत् पिधापयिष्यते इति सार्वजनिक सूचनां प्रकाश्य सर्वे विज्ञापिताः सन्ति इति प्रहरी उपरीक्षकः बोहरा अज्ञापयत्। कर्णाली प्रदेशस्य समृद्ध्या सह योजितस्य कुहलपुर सुर्खेत द्वात्रिंशदुत्तरैकशत केवी परिमाणस्य विद्युत प्रसारण प्रणाल्याः विस्तारायोजनायाः कार्यं पुनः प्रारब्धमस्ति। वर्षद्वयाद् अवरुद्धे बांकी जनपदस्य बानियाभारखण्डे ह्य स्थानीय प्रशासनेन कठोर सुरक्षा व्यवस्थायाः विधानानन्तरम् आयोजनायाः विस्तार कार्यं पुनः प्रारब्धमस्ति। कर्णाली प्रदेश सर्वकारेण लुम्बिनी प्रदेश सर्वकारेण सह स्थानीय राजनीतिक दलानां सम्बद्ध पक्षाणां सुरक्षा निकायानां च समन्वयेन आयोजनायाः कर्मचारिभिः प्रसारण मार्ग विस्तारायोजनायाः कार्यं पुनः प्रारब्धमस्ति इति बांकी जनपदस्य प्रमुख जनपदाधिकारी धर्मराज जोशी असूचयत्। बांकी जनपदस्य कुहलपुर नगरपालिकायाः प्रथमौडा क्षेत्रे एकनवति संख्यकेभ्यः भूमिहीनेभ्यः दलितेभ्यश्च भूस्वामित्व प्रमाणपत्रं वितीर्णमस्ति। भूस्वामित्व प्रमाणपत्र वितरण कार्यक्रमे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी भूमिहीनेभ्यः दलितेभ्यश्च विधि प्रक्रियां प्रपूर्य भूमि वितरण प्रक्रिया प्रारब्धा अस्ति इति असूचयत्। राष्ट्रिय परीक्षा समित्या अद्यतः आराश्रम द्वादश कक्षायाः परीक्षां संचालयितुं सर्वाणि पूर्वकार्याणि प्रपूरितानि सन्ति इति ज्ञापितं वर्तते। सम्पूर्ण पूर्वकार्याणां प्रपूरणात् निर्भयेन परीक्षायां सहभागिनो भवितुं सर्वे विद्यार्थिनः समितेः अध्यक्षः महाश्रम शर्मा अनुरुद्धवान् वर्तते। इति समाचारः।